पुण्यः वाचनमन्त्रम् ॐ तथेक्राभिन्नाकारिणम् जिष्णोरश्वस्य वाजिनः सुरभिनामुखाकरत्मणायोगम् षितारिषत् आपोहिष्ठामजोभवस्तानपूर्जेतधातना महेर्णाय तक्षसे योवशिवतमोरसत्त्वस्य भाजगदेहनः शतीरिव मातरः तस्मारङ्गमापवो यस्य क्षया यजिन्वथा आपो जनयथा जनः हिरण्यवर्णाश्रितयः पावकायासु जातः कश्यपो यास्विन्द्रः अग्नीया गर्भम् दधिरे रूपास्तान आपश्यग्रस्यो न भवन्तो या सर्वम् राजावर्णो याजिमध्ये सत्यार्ते अवपश्यञ्जनाना मधश्रुतश्रुतयोजा पावकास्तान आपश्यग्रस्यो न भवन्तो यासाम् देवाजिविकृण्वन्ति पक्षम् या अन्तरिक्षे बहुधा भवन्ति या पृथिवेमगसोन्दन्ति शुक्रास्तान आपश्यग्रस्यो न भवन्तो शिवेन माचक्षुषा पश्यतापश्यवया तनवोपस्पृशतत्वजम् मे सर्वाकम् अग्नेकम् रक्षिषतो हवे वोमयवच्चापलमोधो निधत्ता अवमानस्वर्जनः पवित्रेण विदर्शनिः यः पोधातुर्नातु मा पुनन्तु मा देव जनाः पुनन्तु मनबोधिगा पुनन्तु विश्व आयवः जातवेदः पवित्रवते पवित्रेण गुणाहि मा शुक्रेण देवजीद्यते अग्नेत्रत्वाकृतोगम् वृणो यत्ते पवित्रमर्चिषि अग्ने विततमन्तरा ब्रह्मतेन पुणीमहे उभाभ्याम् देव सवितः पवित्रेण सवेन च इदम् ब्रह्म पुणीमहे वैश्वदेवी पुनती देव्यागादे यस्वी भग्ने तनवो वेदवृष्ठाः तया वदन्तस्तु समाद्येषु वयज्ञस्यामपदगौरहीणा वैश्वानरोरश्मिभिर्मापुनातो पातः प्राणेने शिरोमयोभोः या वा पृथिवीपयसावयोभिः वृतापरीयज्ञये मापुनीता रहद्भ्यः सवितस्त्रिभिः परिषिष्ठैर्देवमन्वभिः अग्ने दक्षैः पुनाहि मा येन देवा पुनता येनापो दिव्यङ्गशः येन दिव्येन ब्रह्मणा इदम् ब्रह्मपुणीमहे यः पावपानीरध्येति रगसिम्भृतकम् रसम् सर्वकम् सबोधमुष्णाति सुदितम् मातरिश्वना पावपानीर्यो अध्येति रगसिम्भृतकम् रसम् तस्मै सरस्वतीदुहे क्षीरकम् सर्गर्मधोदकम् पावपानी स्वस्तगणीः सुदुधाहिपयस्वतीः ऋभिः सम्भृतोरसः ब्राह्मणेषु पृथकम् इदम् पावमानेर्दिशन्तु नः यमल्लोकमथो अमाम् तामान् समर्थयन्तु नः देवैर्देवैः समाहृताः पावमानेष्वर्थगणीः सुदुधाहिकथश्चुतः ऋभिः सम्भृतोरसः ब्राह्मणेषु पृथकम् इदम् येन देवा पवित्रेण आत्मानम् गुणते सदा तेन सहस्रधारेण पावमान्यः पुनन्तु मा राजापत्यम् पवित्रम् सदोत्यामकम् हिरण्मयम् तेन ब्रह्मविदो भजाम् ओदम् ब्रह्मपुणीमहे इन्द्रस्वीतीशः मा पुनातो सोमस्वस्त्यावरुणः समीक्ष्या यमो राजा प्रविणाभिः पुनातु मा जातवेदामोर्जयन्त्या पुनातो भोर्भुवस्वः तच्छञ्जोरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपदये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ओर्ध्वन्द्विगातभेषजाम् सन्नो अस्तु द्विपदे सञ्चतुष्पदे ॐ शान्तिः शान्तिः शान्तिः।